इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः हरियाणायाः पानीपत क्षेत्रे बीमा सखी योजना समारब्धा। अस्याः योजनायाः लक्ष्यं महिलानां मध्ये वित्तीय साक्षरतायाः, बीमा इति जागरूकतायाः च प्रोत्साहनम् इति अस्ति। भारतीय जीवन बीमा निगम इत्येतस्य अयम् उपक्रमः 18 70 वर्षाणि यावत् ताः महिलाः सशक्तीकरणं करिष्यति याः दशमीं कक्षाम् उत्तीर्णं कृतवत्यः। प्रधानमन्त्रिणा भावीभ्यः बीमा सखीभ्यः नियुक्ति प्रमाणपत्राणि अपि वितरितानि। जनसमूहं सम्बोधयन् प्रधानमन्त्री मोदी अवदत् यत् सर्वेभ्यः आश्वस्तिः सामाजिक सुरक्षायाः प्रमुखः भागो विद्यते, निर्धनतायाः निर्मूलनार्थं च महत्वपूर्णम् अपि अस्ति। प्रधानमन्त्री अग्रे अवदत् यत् ग्रामेषु बैंक सेवाः प्राप्तुं महिलाः महत्वपूर्णां भूमिकां निर्वहन्ति इति। इतः पूर्वं ह्यः प्रधानमन्त्रिणा राजस्थानस्य जयपुर नगरे त्रिदिवसीयं उदीयमान राजस्थान वैश्विक निवेश शिखर सम्मेलनम् उद्घाटितम्। सः अवदत् यत् भारतं लोकतन्त्रस्य, जनसांख्यिक्याः, दत्तांशस्य च वास्तविक शक्तिं विश्वं प्रति प्रदर्शयति। विदेश सचिवः विक्रम मिश्री इत्येषः ह्यः ढाका नगरे भारत बांग्लादेश विदेश कार्यालय परामर्श मण्डले स्वीयेन बांग्लादेशीयेन समकक्षेण मोहम्मद जसीम उद्दीन इत्यमुना साकं वार्तां विहितवान्। ढाकायाः एकदिवसीय यात्रायां समागतः श्रीमिश्री इत्येषः बांग्लादेशस्य विदेश सचिवेन सह उपवेशनानि कृतवान्। ढाकायां वार्ताहरैः सह सम्भाषमाणः श्रीमिस्त्री इत्येषः उक्तवान् यत् भारतं बांग्लादेशेन सह साकारात्मकं रचनात्मकं लाभकारिणं सम्बन्धं च वाञ्छति इति। संजय मल्होत्रा इत्येषः भारतीय रिजर्व बैंक इत्येतस्य अग्रिमः गवर्नर इति भविष्यति। मन्त्रिमण्डलस्य नियुक्ति समित्या तस्य नाम्ने स्वीकृतिः प्रदत्ता। असौ त्रीणि वर्षाणि यावत् कार्यभारं निभालयिष्यति। 90-90 वर्षस्य समूहस्य राजस्थान प्रभागस्य भारतीय प्राशासनिक सेवायाः अधिकारी श्री मल्होत्रा इत्येषः वर्तमान समये वित्तमन्त्रालये राजस्व सचिवत्वेन कार्यरतो विद्यते। असौ शक्तिकान्त दासस्य स्थाने समागतः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य मानवाधिकार दिवसावसरे नवदिल्ल्यां राष्ट्रिय मानवाधिकार आयोगेन आयोक्ष्यमाणं कार्यक्रमं सम्बोधयिष्यति। अयं दिवसः प्रतिवर्षं दिसम्बर मासस्य दशमे दिनांके समायोज्यते। अस्य वर्षस्य शीर्षको विद्यते अस्माकं अधिकाराः अस्माकं भविष्यं साम्प्रतमेव इति। मानवाधिकार आयोगेन एकस्मिन् प्रदत्त वक्तव्ये सूचितं यत् अस्य दिवसस्य उत्सवानन्तरं मानसिक स्वास्थ्यं कक्षातः कार्यस्थलं यावत् मानसिक चिकित्सायाः मानसिक चिन्तायाः निदानम् इत्यस्मिन् विषये एकदिवसीयं राष्ट्रिय सम्मेलनम् आयोजयिष्यति। रूसदेशस्य जलपोतस्थानके नगरे कलिनिनग्राद इत्यत्र रक्षामन्त्रिणः राजनाथसिंहस्य उपस्थितौ भारतीय नौसैन्यबले नवीनतम मल्टीरोल स्टील गाइडेड मिसाइल फ्रिगेट इति आईएनएस तुशील प्रक्षेपास्त्रं समाविष्टम्। दक्षिण कोरिया देशस्य अधिकारिणः गतमंगलवासरे अल्पकालिकस्य मार्शल लॉ इत्येतस्य घोषणायाः विषयान्वेषणे वर्तमान राष्ट्रपतेः यून सुक योल इत्यस्य उपरि यात्रा प्रतिबन्धम् आरोपितवन्तः। भ्रष्टाचारान्वेषण कार्यालयस्य उच्चपदस्थ अधिकारिणां घोषणायाः किञ्चिद् कालानन्तरमेव एव न्यायमन्त्रालयेन निषेधः आरोपितः अस्ति यत् सः आदेशाय निवेदनं प्रेषितवान् इति। स्थानीय वार्तामाध्यमानुसारि यून इत्यस्य आकस्मिक मार्शल लॉ इत्यस्य घोषणायाः विषये युगपदेव अन्वेषणेषु शंकितः इति नामांकितो विद्यते इति वार्ताः।